नमस्कारः अद्य सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे अष्टादशः भागः फेब्रुवरी मासस्य त्रयोविंशतितमः दिनाङ्कः येनाक्षरसमां नायमधिगम्य महेश्वर कुत्स्मिन् व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीं विरच्यते. सखिशब्दस्य प्रक्रिया चलति. इकारान्तः पुल्लिङ्गः सखिशब्दः कः विशेषः इति चेत् सुप्रत्यये परे किं भवति अनङ्सौ इति सूत्रेण केवलस्य सखिशब्दस्य केवले सुप्रत्यये परे it's a sutra with a very limited range. It is meant only for sakhi shabda and only when followed by the asambuddhau saupare, right? So anang iti adeshah bhavati. Nicha iti sutrena yamanta adeshah anang iti adeshe sakhan su iti sthite sarvanamasthane cha asambuddhau ityanena upadha dirghah alontya purva upadha अन्त्यादलः पूर्वो वर्णः उपधासंज्ञः स्यात् इति उपधा अकारः तस्य अकारस्य स्थाने दीर्घः सखान् स ततः हल्ङ्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इति हलन्तात् परस्य अपृक्तस्य सुप्रत्ययस्य लोपः ततश्च नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपे सखा इति रूपं प्रथमाविभक्तौ एकवचने. सम्बुद्धौ तु अनङादेशः न भवति. असम्बुद्धौ सौपरे इत्येव उक्तत्वात् अनङ् इति आदेशः न भवति. हे सखीसु इति स्थिते गुणः सम्बुद्धिलोपश्च भवति. ह्रस्वस्य गुणः इत्यनेन गुणः एङ् ह्रस्वः सम्बुद्धेः इति सम्बुद्धिलोपे हे सखे इति रूपम्. ततश्च अन्येषु सर्वनामस्थानेषु परेषु किं भवति इति चेत् सख्युरसम्बुद्धौ इत्यनेन मिद्वद्भावः इत्युच्यते. सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं निद्वत् स्यात्. इट् विल् बिहेव् लैक् अ णित् प्रत्यय. सो इफ् द प्रत्यय ईस् णित् अचोयणिति इत्यनेन अङ्गस्य वृद्धिः उच्यते. इति णिति च प्रत्यये परे अङ्गस्य वृद्धिः स्यात् इत्यनेन सखि इत्यस्य अन्त्यस्य इकारस्य स्थाने वृद्धौ सखै अस्व औ भवति. ततः एचोयवायावः इति आयादेशे सखायौ सखायः सखायं सखायौ इति रूपम्. ततः सखीन् इत्यत्र तु प्रथमयोः सोरि ऐ थिङ्क् दट् इस् वेर् वि स्टाप्ड्. इदानीं शस् प्रत्ययः सखी शस् अस्य सर्वनामस्थानसंज्ञा नास्ति. सुडनपुंसकस्य इत्युक्तत्वात् सुट् प्रत्याहारस्यैव सर्वनामस्थानसंज्ञा. शस् प्रत्ययस्य सर्वनामस्थानसंज्ञा नास्ति. तर्हि किं भवेत् चेत् प्रथमयोः पूर्वसवर्णः द स्टाण्डर्ड् सूत्रं. सो अकः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः स्यात् इति पूर्वसवर्णदीर्घे सखीस् इति भवति. ततः सखारस्य स्थाने तस्माच्छसो नः पुंसि. तस्मात् कृतपूर्वसवर्णदीर्घात् शसः सकारस्य नकारः स्यात् इति नत्वे सखीन् इति रूपं. सखायं सखायौ सखीन्. ततः सखी टा प्रत्ययः. टा प्रत्यये परे हरिशब्दस्य तु घिसंज्ञायाः सत्त्वात् आङ्गोनास्त्रियाम् इत्यनेन नाभावः उच्यते. सखिशब्दस्य शेषोघि असखि. सखिशब्दस्य सङ्घिसंज्ञा नास्ति तस्मात् नाभावः अपि न भवति. इको इणचि इति इणादेशः. सखि आ सख्या. सखिभ्यां सखिभिः किमपि नास्ति. सखिभ्यां सखिभ्यां सखिभिस् ऋत्वं विसर्गः सखिभिः. एवमेव सख्ये. सखिशब्दात् ङे प्रत्ययः ए इति शिष्यते. इणादेशः सख्ये. सख्ये सखिभ्यां सखिभ्यः. ततः किं भवति सखि इत्यस्मात् पञ्चम्येकवचने ङसि प्रत्ययः अस् इति शिष्यते. अत्रापि इको इणसि इत्यनेन यणादेशः. सख्यस् इति भवति. रूपं किं सखी शब्दस्य पञ्चम्येकवचने किं रूपम् इष्यते सखी शब्दस्य पञ्चम्येकवचने किं रूपं स्यात् वसुजी सख्युः सत्यं सख्युः इति रूपम् इष्यते अस्ति सख्यस् इत्यस्ति अस्य ऋत्वे विसर्गे च कृते सख्यः इति भवति कुतश्चित् उकारः आनेतव्यः ख्यत्यात् परस्य इति अग्रिमं सूत्रं पदद्वयं विद्यते ख्यत्यात् परस्य इङः पदान्तादति इति सूत्रात् अति इति अनुवर्तते ङसिङसोश्च इति सूत्रं पूर्णम् अनुवर्तते ऋत उत् इत्यतः उत् इत्यपि अनुवर्तते कः अर्थः ख्यत्यात् इत्यस्ति खि खि इत्यस्मात् यणादेशे कृते किं भवति ख्य इति भवति सो ख्य इत्यनेन कृतयणादेशः खि खि वा इष्यते सूच्यते पाणिनिना एवमेव त्य इत्युक्ते ति अथवा ति इत्येतयोः यणादेशे कृते त्य इति भवति सो ख्यत्यात् इत्यस्य कः अर्थः लिखितः दीक्षितैः खिति शब्दाभ्यां खीति शब्दाभ्यां कृतयणादेशाभ्यां परस्य ख्यत्यात् इत्यस्य एव एतावान् अर्थः द वर्ड् ख्यत्यात् कन्वेज् दिस् मच् कन्वेज् दट् देर् हेस् बीन् अ यणादेश विच् हेस् बीन् डन् फोर् इदर् खि खि आर् ति ति बिकास् आफ्टर् एण्ड् यु केनाट् डिफ्रेन्शियेट् वेदर् इट् वास् ह्रस्व अर्लियर् आर् दीर्घ सो वि टेक् बोत् ह्रस्व अण्ड् दीर्घ सो इफ् देर् इस् अ ह्रस्व खि आर् खि आर् अ दीर्घ खि ह्रस्व ति आर् अ दीर्घ ति and there has been a yanadesha okay so that is all that is given by khyatyat so khiti shabdabhyam khiti shabdabhyam krita yanadesha abhyam parasya ngasi ngasoho ataha ngasi pratyaha ngas pratyaha panchamyeka vachane shashtheka vachane etayoho ataha at namakim what does at mean अकार ह्रस्व अकार ओन्लि दट् इस् द की पायिण्ट् अत् नाम ह्रस्व अकारः उत् नाम ह्रस्व उकारः तपरस्तत्कालस्य तः परः यस्मात् सः तात्परश्च उच्चार्यमाणसमकालस्यैव संज्ञा स्यात् तदात् अतः नाम ङसिङसोः यः ह्रस्वः अकारः तस्य स्थाने उत् नाम ह्रस्व उकारः आदेशः भवति इदानीं किं कृतम् अस्माभिः सख्यस् इत्यस्ति सखि खि शब्दात् यणादेशः कृतः कृतयणादेशः खि शब्दः सख्यस् इत्यस्ति सख्य इति कृतयणादेशः खि शब्दः तस्मात् परः ङसि प्रत्ययस्य अकारः तस्य स्थाने उकारः आदेशः भवति सो वि हेव् टेकन् खि आफ् सखि we did yanadesha so it became khya following that khya we have the akara of ngasi pratyaya so that akara is replaced by ukara okay sakhyus iti bhavati khyatyat parasya iti sutrena utvam vidhiyate ngasingasoh atah utvam vidhiyate kada bhavati khyatyat parasya tavadeva very simple if it is following either khya or tya you get the akara is replaced by ukara okay ततः सकारस्य स्थाने ऋत्वं ससजुषोरुः इति ऋत्वं हर्वसानयोर्विसर्जनीयः सख्युः सखी अस् इत्यस्ति इगोयणसि इति अणादेशः ख्यत्यात् परस्य इत्यनेन उत्वं ऋत्वं विसर्गः सख्युः इति रूपम् अदर् एक्साम्पल्स् फार् दीर्घ खी yeah there is sukhi I think they give some sukhihi sutihi iti udaharanam diyate dirgha ikare dirgha ukare they are derived from sukhamatmanah icchati iti sukhihi सुतमात्मनः इच्छति इति सुतीः इत्यत्र दीर्घस्य ख इत्युक्ते खी ति इत्यनयोः श्रवणं भवति. But they are not mean. I mean, they are almost like artificial words, but they are there. There are examples for those. Okay. Khyatyat parasya. Next, nasi bhyambhyas ngas pratyaye pi samanam rupam sakhyuhu. Os pratyaye sakhi os ikovana siti anadeshaha rutvam visargaha sakhyohu. Tataha sakhi am. Am pratyaye as usual, hasvanadhyapo nut iti nudagamah, nami iti dirghah, sakhinam, sakhyuhu sakhyohu sakhinam, tatah kim bhavati, sakhi shabdat ni pratyayah, I iti asti, sakhi I. What happened in hari shabda, we had achaghehe, ittanena, ghi shabdat parasya ikarasya sthane aukaradeshah, ghikarasya akaraha antadeshah katah, tena harau iti jatam. अत्र तु सखिशब्दस्य घिसंज्ञा नास्ति, तस्मात् अच्चघेः इति सूत्रस्य प्रवृत्तिः न भवति, तस्मात् पूर्वतनं सूत्रं भवति औत्. सो क्यू अबौट् दिस् औदच्चघेः, ऐ सॉ इन् अ फ्यू बुक्स् विच् ऐ हेव् हियर् अण्ड् ऐ डिडन्ट् फैण्ड् एनिथिङ्ग्, सो ऐ डोण्ट् हेव् मै कापि आफ् द महाभाष्य हियर्. सो आफ्टर् ऐ लुक् एट् द भाष्य ऐ टेल् यू अबौट् whether the Bhashyakara treats it as a single sutra or separate sutras. According to Dikshita, according to Kaumudi, everywhere there are two separate sutras. You have Aut as one sutra and Achaghehe as another sutra. Ekaparatmakam sutram Aut iti Purvat arthat, Purvasmat sutrat Nyeram Nadyam Nibhya ityataha Nyehe iti anavartate Nyehe Aut Nyipratyasthane Autsya Idudbhyam इकार उकाराभ्याम परस्य ङेः औत् स्यात् इति सूत्रार्थः. इदुभ्याम परस्य ङेः औत् स्यात् उकारानुवृत्तिः उत्तरार्थः. यतोहि अत्र इदुद्भ्याम इति उच्यते, ही सेज व्हेन इकार और उकार इज फॉलोड बाय इज प्रीसीडिंग ङी प्रत्यय, द ङी इज रिप्लेस्ड बाय औ, बट वी डू नॉट हैव एनी एग्जांपल्स फॉर उकार, दैट इज एन उकार विच डज नॉट हैव घी संज्ञा. Because for in ikarantas, we have sakhi shabda does not have ghi samya, pati also does not have ghi samya, so we can apply out. But in case of ukarantas, all ukarantas have ghi samya by shesho ghi sakhi. So we do not find examples of an ukaranta word for which this sutra can apply, for which out can apply. So it is why Ikshitra is ukaranuvrittihi. Ukarasya anuvrittistu bhavati, kintu uttarartha. Means for the next sutra, it goes on. Achaghehe. Yeah, we do mean Hraswaukara because it is it and ut. Hraswaikarantat, Hraswaukarantat cha parasya. Ityartha. So all Hraswaukaranta words have this by Sheshoghe Sakhi. Because the ghi samya itself is for only Hraswaikaranta and Ukara. सो उकारानुवृत्तिः उत्तरार्था, अर्थात् अत्रापि उकारः अनुवर्तते किन्तु उदाहरणं दर्शयितुं न शक्यते. तर्हि किमर्थम् अनुवृत्तिः इति चेत्, अग्रिमसूत्रे अच्चघेः इत्यत्र उकारस्य अनुवृत्तिः अपेक्ष्यते, अतः अत्रापि अनुवृत्तिः क्रियते, उदाहरणं तु नास्ति. सो फार् द सूत्र औत् वि फैण्ड् एक्साम्पल्स् ओन्ली इन् इकारान्तस्, ओन्ली फार् सखि शब्द अण्ड् पति शब्द, दट् इस् आल् एक्चुलि. सो सखी ई इत्यस्ति, इकारस्य स्थाने औत् इत्यनेन औकारादेशः, सखी औ ततः इकोयणचि इत्यनेन एणादेशे सख्यौ इति रूपं, सख्यौ शेषं हरिवत्, अन्यानि रूपाणि हरिशब्दवत् भवन्ति. सो वेर् डस् सखिशब्द वेरि फ्रम् हरिशब्द, इफ् यु सी विल् सी दट् देर् इस् फस्ट् थिङ्ग् In Supratyaya, there is a karya which has been specifically mandated for Sakhi. Similarly, in Sarvanamasthanas. So, the first five forms, it varies. Because there are karyas which are particularly told for Sakhi Shabda. Again, it varies in from Tritiya to Saptami Ekavasana, where there are Ghisamya Nimitta Karyani. Harishabdasya Ghisamya Nimittani Karyani Bhavanti. Angonastriyam Gherngiti Tathaiva Atsagheheti Sakhi Shabdasya Nabhavanti. Ittyeva Visheshaha. So, to just to sum it up, asakhi shabdasya shesho ghi asakhi ityuktatvat ghi samya nasti tat prayuktani karyani api na bhavanti kani tani karyani angonastriya iti ta pratyayasya sthane na bhavah gherniti iti ngitsu pratyayeshu gunah atyaghehe iti nipratyaye pare prakritehe atvam vidhiyate. So these three karyas will not happen for sakhi shabda. That's the first thing. And the second, sakhi shabda seva vishishtani karyani uktani kila. Yatha anang sau chichete. Supratyaye pare sakhi shabda se sthane anang adeshaha bhavati. Evam eva sakhyura sambuddhau. Sakhyurangat parasya param sarambuddhivarjam sarvanamasthanam nidvad bhavati. So these two are karyas which are specifically mandated for sakhi shabda. So all changes, where does sakhi shabda differ from hari shabda, is where, first thing, wherever there is khisamya karya, which is tritiya, chaturthi, panchami, shashti, saptami, ekavachanas, and the first five, su, au, jas, am, out. So the other sutras which we studied in this, while doing sakhi shabda, sarvanamasthane cha sambuddho, kimuchyate anena, what was this sutra used for? Sarvanamasthane sa sambuddho. Kimuchyate sarvanamasthane sa sambuddho iti sutrena. Priya says dirgha satyam upadha dirghaha nantasya upadhayaha dirghaha syat asambuddhau sarvanamasthane pare. So wherever you have a nanta nakaranta anga, the upadha will get dirgha if it is sarvanamasthane. Okay, halnyabhyo dirghat sutisya praktam hal supratyasya lopaha vidhiyate halantat dirghau yaum nyapo tadantat cha param sutisi itetat apraktam hal lupyate iti sutrartha. Achoiniti kimuchyate kaha sutrartha achoiniti achoiniti. What is the sutra used for and what does the sutra mean? Achoiniti is not atidesha. Atidesha is sakhyura sambuddhau. So, achoyaniti ityanena angasya dirghaha bhavati. Achaha, ajantasya angasya vriddhihi syat. Sorry, not dirgha, vriddhi. Vriddhihi syat iti nitija pratyaye pare. So, it gives vriddhi for ajanta anga, achoyaniti. Khyatyat parasya, idani madhitam, khyatya ityasmat parasya, ngasinga sorakarasya, ukaraha adheshaha vidhiyat. And out. Ikarantad, ukarantad, changat parasya, ni pratyasya sthane, aukaraha adeshaha bhavati. So these were some of the special sutras which we studied in sakhi shabda. So sakhi shabda se prakriya yadi drishyate. We see sakha ityatra vishishtam karyam, anangsau iti anangadeshaha. Atra sakhayo sakhayaha sakhayam sakhayo. In these we have sakhyura sambuddhau iti nidvad bhavaha. And here in these five, the difference is because of the absence of ghisamya. So these are all the forms in which sakhi shabda differs from hari shabda. And the difference here in these five forms is because it does not have ghisamya. And here it is because of the special sutras which exist for sakhi shabda. In all these, whatever is in black, the forms are the same. Prakriya samana bhavati. Sakhi shabdasya hari shabdasya cha. Right? Any doubts in sakhi shabda? any questions? So, so idanim dikshitaihi kimuchyate sakhi shabdah asti kevalasya sakhi shabdasya rupani evam bhavanti samase sakhi shabdah bhavati chet kim bhavati, what would happen when sakhi, the word sakhi is part of a samasa, is there a difference? The question. Shobhana sakha susakha. Mohanji. Hello. Priya is asking, in some Indian languages, is Sakhi not used as Strilinga? And if the Strilinga you say, it's not present in Sanskrit. There is Sakhi. Ikaranta Strilinga ha, Sakhi Shabda hasti. Sakhi Sakhyo Sakhyaha. Iti bhavati. So, tasmin arthe asti, kevalasya Sakhi Shabdasya, pullinge Sakha Sakhayo Sakhayaha, Strilinge Sakhi Sakhyo Sakhyaha. But yeah, true. In especially in Kannada, the word sakhi is used for predominantly for a female as a friend. It is strilinga only. I don't know about other languages. But in Sanskrit, the pullinga is also there, and the strilinga is of course there. Mohan ji, I think we have a problem with the microphone. Maybe you can just type the question and I'll answer. Okay, so let's move on. If you have a question, you can anytime type it, I'll answer it. Shobhanaha sakha. Shobhanaha sakha ityaste su ityasmat su ityanena saha sakhi shabdase samasaha bhavati tatpurusha samasaha shobhana sakha pradi samasaha su sakhi iti pratipadikam vidyate. The pratipadika is su sakhi. So what will happen in for it in samasa? Yes, it is su sakha sukha sakhayu sakhayaha. So there is Anangaresha will happen, so you get susakha, nidvadbhavaha. Anangaresha, nidvadbhavascha bhavataha. So susakha, suksakhayo, susakhayaha, susakhayam, susakhayo. Iti sakhi shabdavad rupani. Kintu, tatah kim bhavati? Anang nidvadbhavayoho, angatvat tadantepi pravrittihi. Paribhasha vidyate, padangadhikare tasyata tadantasyata. Padadhikare, angadhikare cha yadyat karyam uchyate, tasyapi bhavati, tadantasyapi bhavati. Ityarthaha. So, whatever is told in the padadhikara or the angadhikara. The angadhikara is what we are studying now. Whatever comes between 641 and 74, the last sutra is called angadhikara. So, in the angadhikara, whatever karya is told, we can apply it for the plain shabda and also for tadanta. We saw this, if you remember, in Jarayaha Jarasanyatarasyam. Jarayaha Vihitaha Jarasadeshaha Kevalasya Jarashabdasya Api Bhavati Tadantasya Nirjara Shabdasya Api Bhavati. Right? So similarly here he says, Angatva. Since it is an Angakarya, Anangsau and Sakhirasambuddhau, both of them belong to the Angadhikara. So Tayoho Angatva. Angadhikare Upte Karye Ityataha Tadantepi Sakhi Shabdantepi arthati yatra kevala sakhi shabdaha tatrapi bhavati sakhi shabdanta samasaha yatha susakhi tatrapi bhavati tena susakha susakhayo susakhayaha ityadi ritya rupani. Hindu samudayasya sakhi rupatva bhavat asakhi iti nishedha apravrattehe ghi samya. The speciality is for tadanta. What did we say in for ghi samya? We said sheshaha ghi asakhi. Asakhi nama sakhi bhinnam. That whatever the sutrartha said, anadi samyau rasvau yau ivarnau varnau tadantam sakhi varjam ghi samyam syat. Iti sutrartha. So other than sakhi, wherever the form is sakhi, everything else will get ghi samya. Now this susakhi, the entire samudaya is not equivalent to sakhi. It has sakhi at its end, kintu samudayasya sakhi rupatva bhavat. Yaha susakhi iti samudayaha shruyate, saha sakhi rupaha nasti. So that is not exactly equivalent to sakhi. Therefore, asakhi will not apply here. We cannot say that susakhi does not have ghi samya. Ghisamya bhavati. So other than the plain sakhi shabda, for anything which ends in sakhi shabda, we do have ghisamya. Ghisamya bhavati chet kim bhavati? Susakhina ango nastriyam iti nabhavaha bhavati. Hello? Hello. Ravi, can you hear me now? Hello. 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 Muted. Hello. Hello. Family. I don't know what. Yeah. I lost, it said you lost audio connection for a short time. There was some problem with the network. But then, I don't know, you couldn't hear me. I guess everybody can hear me now. Good. So where was I before we lost? So, the Nishedha, the Asakhi is a Nishedha for Ghisamya. It says that Sakhi Shabda should not have Ghisamya. But this Nishedha applies only for the pure Sakhi Shabda and not for anything which is ending in Sakhi. Right? Why? Samudayasya Sakhi Rupatva Abhavad. Yaha Samudayaha Shruyate Susakhi Tiva Ati Sakhi Tiva Tasya Sakhi Shabda Sakhi Rupatva Nasti. So it is not exactly equivalent to Sakhi. So this Nishedha for Ghisamya will apply only for Sakhi Shabda and not Tadanta. The Anang Nitve Tasyapi Bhavataha Tadantasyapi Bhavataha Ghisamya Tu तस्य न भवति केवलस्य सखिशब्दस्य घिसंज्ञा नास्ति तदन्तस्य घिसंज्ञा अस्ति घिसंज्ञा अस्ति चेत् तत्प्रयुक्तानि कार्याणि यथा आङो नास्त्रियाम् इति नाभावः एण्ड् घेर्णिति इति गुणः अचघेः इति अकारादेशः सर्वं भवति तेन रूपं किं भवति हरिशब्दवद् रूपाणि सुसखिना सुसखये सुसखेः सुसखौ इति रूपाणि भवन्ति ओके सो दिस् अ क्वश्चन् नाट् से एकदेशविकृतम् अनन्यवत् इट् इस् नाट् एकदेशविकृत एकदेशविकृत इस् वेर् यु टेकिङ्ग् अ शब्द एण्ड् इस् डूयिङ्ग् समथिङ्ग् टु इट् यु आर् ईदर् आडिङ्ग् ऐ मीन् यु आर् चेञ्जिङ्ग् दट् पर्टिक्युलर् पार्टिकल् इफ् यु टेक् सखि शब्द and either elongate it or do an adesha for it that is all is called ekadesha vikara but this is you are adding you are making a samasa so su is a separate word and sakhi is a separate word so susakhi is not a vikara of sakhi it's a separate word so that is why you cannot apply ekadesha vikara mananyavat so susakhi shabdasya kim bhavati adau sarvanama sthaneshu pareshu सखिशब्दवद् रूपाणि सखा सखायो सखायः इतिवत् सुसखा सुख सखायो सुसखायः ततः हरिशब्दवद् रूपाणि भवन्ति सो नसिंहसोः सुसखिना सुसखये नसिंहसोः किं भवति सुसखी नस् इत्यस्ति घेर्णिति इति गुणः क्रियते सुसखे अस् इदानीं तु नसिंहसोश्च इति पूर्वरूपं भवति ख्यत्यात् परस्य इत्यस्य प्रवृत्तिः नास्ति बिकास् देर् इस् नो ख्य ख्यत्यात् परस्य अप्लैस् ओन्ली आफ्टर् वी डू यणादेशम् सिन्स् वी आर् नाट् डूयिङ्ग् यण् वि आर् डूयिङ्ग् गुण फार् सुसखी सुसखी अस् इति स्थिते घेर्णिति इत्यनेन गुणे सुसखे अस् इति भवति यणादेशः नास्ति तस्मात् ख्यत्यात् परस्य इति उत्तममपि न भवति सुसखेः इत्येव रूपम् ततः अच्चघेः इति निप्रत्यये परे भवति सुसखौ इत्यादि the forms evam atishayitah sakha ati sakha atishayitah sakha ityarthe ati ityasmat ityasya sakhi shabdena sah samasah all these are pradhi samasas so even for ati sakha you have like this that is the first five forms go like sakhi shabda after that it would be like hari shabda so if you notice between sakhi and susakhi The difference is in the five forms. Wherever there is ghisamya prayukta karya, tatra vyatyaha drishyate. Adau kimapi vyatyaha, kopi vyatyaha nasti. Sakha sakhayo sakhayaha, sakhayam sakhayo, sarvam samanam. Yatra ghisamya prayuktam karyam asti, tatra vyatyaha drishyate. Sakhi shabdasya sakhya, sakhye, sakhyuhu, sakhyuhu, sakhyau iti bhavati. Susakhi shabdasya tu susakhina, harina iti vat susakhina. हरये सुसखये हरेः सुसखेः हरौ सुसखौ हरिशब्दवद् रूपाणि सो इफ् वी आर् डूयिङ्ग् अ समास इफ् इट् इस् एण्डिङ्ग् इन् सखि शब्द देन् द फस्ट् फैव् फार्म्स् विल् बि लैक् सखि शब्द अण्ड् द लेटर् फार्म्स् विल् बि लैक् हरिशब्द क्लियर् नौ दिस् इस् अ केस् वेर् Always when we talk about samasas, we talk of two kinds of samasas. Right? There are samasas where the word in question is pradhanam. And there are samasas in which it will be gauna. I had already explained this concept of pradhanya and apradhanya earlier. in a samasa, when we are talking of samasas, pradhanya is shabdakrata pradhanyam. Yatra kriyayam anvayaha bhavati. तत्र प्राधान्यम् इत्युच्यते यत्र क्रियायां प्राधान्यं न भवति क्रियायाम् अन्वयः न भवति तत्र अप्राधान्यम् उदाहरणार्थं दूतः इत्यस्ति राज्ञः दूतः राजदूतः तत्र कस्य प्राधान्यं राजदूतः गच्छति इत्युक्ते राजा न गच्छति दूत एव गच्छति तस्मात् दूतस्य प्राधान्यम् उत्तरपदार्थप्रधानस्तत्पुरुषः किन्तु यदि बहुव्रीहि समासः क्रियते यथा बहुव्रीहौ किमपि उदाहरणं स्वीकर्तुं शक्यते उदाहरणं बहुव्रीहेः ஓகே. சம் எனி பகுவிஹி யூ டேக்ஸ் ஃபார் எக்ஸாம்பிள் பீதாம்பரம், பீதம் அம்பரம் எஸ்ய சஹா. வென் வி ஆர் சேயிங் பீதாம்பரம், பீதாம்பரா ஆகச்சதி, இட் இஸ் நாட் த அம்பரா விச் இஸ் கம்மிங் பை இட் செல்ஃப், இட் இஸ் சம்படி எல்ஸ், அன்ய பதார்த்த பிரதான. ஸோ இன் பீதாம்பரா இட் இஸ் நாட் அம்பரா விச் இஸ் பிரதான, இட் இஸ் நீதர் பீதா நார் அம்பரா, இட் இஸ் சம்படி எல்ஸ். தட் இஸ் வை வி சே அன்ய பதார்த்த பிரதான பகுவ்ரீஹி. வென் வி ஆர் டாக்கிங் அபவுட் சப்தாஸ் ஹியர் இன் தத் புருஷ, தட் இஸ் வை if there is a shabda which is end, at the end of a tatpurusha, it will tend to be pradhana. But if a compound, if a pada is in bahuvrihi compound, then it will tend to be apradhana. So always when we are talking of samasas, we should see what happens when that shabda is pradhana and what happens when it is gauna. Pradhanya kim bhavati, apradhanya gaunatve kim bhavati, it is sarvada charchate. Always that is the point of difference. Pradhanya kim bhavati, gaunatve kim bhavati. உதாரணம் திருஷ்டம் சர்வசப்தா அஸ்தி, சர்வசப்தா எதி பிரதானா பரமச்சாசோ சர்வச்ச இத்யஸ்தி சேத் ததா சர்வநாம சம்யா பவதி. கிந்து எதி அப்ரதானம் பவதி திருஷ்டா சர்வா யேன சஹ இதி கிமபி பவதி ததா அப்ராதான்யே சர்வநாம சம்யா ந பவதி. கிளியர்? சோ தத்ராபி இட் வாஸ் எ சிமிலர் கேஸ், யூ ஹேவ் அ சர்வசப்த, சர்வசப்தஸ்ய சர்வநாம சம்யா அஸ்தி, தத்பிரயுக்தானி காரியாணி ததந்தஸ்யாபி பவந்தி இது உக்தம். அர்த்தாத் சமாசேபி சர்வநாம சம்யா பவதி, கதா பவதி யதா பிராதான்யம் அஸ்தி ததைவ சர்வநாம சம்யா பவதி, யதி பிராதான்யம் நாஸ்தி, யதி பஹுவ்ரீஹௌ கௌணத்வம் அஸ்தி சம்யா உபசர்ஜனீ பூதாஸ்து ந சர்வாதயஹ, யதி உபசர்ஜனத்வம் கௌணத்வம் அஸ்தி ததா சர்வநாம சம்யா நாஸ்தி இது விவேகம். அத்த கிம் பவதி சகி சப்தஸ்ய யத் காரியம் உக்தம் அனாதேசஹ நித்வத் பாவோ வா பிராதான்ய பவதி சோபன சகா, அ குட் ஃப்ரெண்ட் இத்தியத்ர சக்யுரேவ பிராதான்யம், இட் இஸ் த வேர்ட் சகி விச் இஸ் பிரதான. சிமிலர்லி அதிசயித சகா இத்தியத்ராபி சகி சப்தஸ்யேவ பிராதான்யம், பிராதான்யே தஸ்யாபி பவதி ததந்தஸ்யாபி காரியம் பவதி. கௌணத்வே கிம் பவதி இது சேத் பரம சகா யஸ்ய சஹ, பரமஹா சகா யச்ச சஹ இது விக்ரஹ. ததா கிம் பவதி பரமசகா பரமசகாயௌ கௌணத்வேபி அனங் நித்வே ப்ரவர்த்தேதே. ஸோ வி ஹாவ் போத் அனங் அண்ட் நித்வா ஈவன் வென் இட் இஸ் கௌணா. திஸ் இஸ் அ வெரி ஸ்பெஷல் கேஸ். த ஜென்ரல் கேஸ் இஸ் வாட் எவர் காரியா இஸ் டோல்ட் வில் அப்ளை ஒன்லி இன் கேஸ் ஆஃப் பிராதான்யா. கௌணத்வே தஸ்ய காரியஸ்ய ப்ரவர்த்தி பிராயேண ந பவதி. கிந்து அஸ்ய விஷயே சக்யுரசம்புத்தௌ அனங்ஸௌ இத்தேதயோஹ விஷயே பிராதான்யேபி பவதி கௌணத்வேபி பவதி. கிம் பிரமாணம் இது சேத் பாஷ்ய பிரயோக ஏவ பிரமாணம். த பிரமாண ஹியர் இஸ் பாஷ்யக்கார ஹேஸ் யூஸ்ட் த வேர்ட் வித் ஆஸ் பரமசகா, ஹி ஹேஸ் ஷோட் தட் தேர் வில் பி அனங் அண்ட் நித்வா. ஸோ கௌணத்வேபி பஹுவ்ரீஹி சமாசேபி அனங் அபி பவதி நித்வத் பாவஹ அபி பவதி. ஸோ திஸ் இஸ் எக்ஸாக்ட்லி லைக் வாட் வி ஸ்டடி. பிரதம ஸ்வாதி பஞ்சகே சகி சப்தவத் ரூபாணி ததா ஆரப்ய ஹரி சப்தவத் ரூபாணி. The forms will be like susakhi, we will also have paramasakhi. But there is also another rupa which he shows, sakhim atikrantaha atisakhi. Sakhim atikrantaha ityasti sakhi iti atra ikarantaha strilingaha sakhi shabdaha. The sakhi used here is an ikaranta strilinga. Sakhim atikrantaha, he who has crossed sakhi. ததா கிம் பவதி அதி இத்யஸ்மாத் சகி இத்யஸ்தி அதி சகி இதி ஸ்திதே கோஸ்திரியோர் உபசர்ஜனஸ்ய இத்தனேன ஹ்ரஸ்வஹ பவதி. த சின்ஸ் இட் இஸ் அ ஸ்திரீ பிரத்யந்த த ஈகார இஸ் ட்ரங்கேட்டட், இட் இஸ் ஷார்டன் டு ஃபார்ம் அதி சகி. நௌ யூ ஹாவ் அன் இகாராந்த புல்லிங்க அதி சகி சப்த டிரைவ்ட் ஃப்ரம் ஸ்திரீலிங்க பட் இட் இஸ் நௌ புல்லிங்க. Okay, so ati sakhi asya rupani katham bhavanti, how will the forms of this word be, will it get anang and nidvat bhava, this is the question. Before that he asks a question. Linga vishishta paribhashayaha anityatvat na tat. Okay, so before that paramaha sakha yasya saha is what we study, bahuvrihi samase paramasakha paramasakhayo paramasakhayah iti bhavati. paramaha sakha iti kim bhavati. What will be the form if it is paramaha sakha? That is karmadharaya. What I am telling now is karmadharaya. In bahuvrihi paramasakha yatyasaha yatyasya ityatratu paramasakha paramasakhayu iti jnatam. Paramaschasau sakhacha iti karmadharaya kim bhavati. What will be the form? Or Krishnasya sakha tatpurushe kim bhavati. What is the form? Athava ravihi. Krishna sakha iti bhavati va? Okay. Any other options for me? What will be Krishnasya sakha kim rupam? Same as sakha, Krishna sakhi? No. This is prayoga. Have you never come across? Okay. Paramaha Sakha, Krishnasya Sakha. Okay. It is not the same as the Sakhi. That is why the question. What is the Prayoga? There is something very special about Sakhi Shabda and why he chose those particular examples. On a tangential line. Mahan Raja kim rupam? Mahan Raja iti karmadharaya samase kim rupam? Maharaja, will it be Maharaja Maharajano Maharajanaha? Like Raja Rajano Rajanaha? Hello, can you hear me? Audio problem again. Okay. So, akarantaha. Maharajaha, Maharajo, Maharajaha. Rajan shabdaha nakarantaha. Raja Rajano Rajanaha. Kintu samase, tatpurusha samase. Maharajaha, Maharajo, Maharajaha. Ityo bhavati kila evameva sakhi shabdasya api yadyapi sakhi shabdaha ikarantaha tatpurusha samase sakhi shabdaha akaranto bhavati krishnasya sakha krishna sakha krishna sakha krishna sakhau krishna sakhaha evameva paramasakha ityasti chet paramasakha paramasakhau paramasakhaha rama shabdavad rupani bhavanti. This is because of samasanta pratyaya. We call it, there is a suffix added at the end of a samasa and that is called touch. Okay. Vasuji. Oh, sorry, I didn't notice. Okay, I didn't notice it. So now, touch iti pratyaha. The pratyaya which is added to this is called touch. There is a sutra called Rajaha Sakhibhyash Touch. Raja, Rajan Shabda, Ahan is again Nakaranta, Ahan Shabda and Sakhi Shabda. For these three words, at the end of a Tatpurusha compound, we add a suffix which is called touch. So the effect of adding touch is that it becomes Akaranta at the end of a samasa. That is why we have Maharajaha. And we have Krishna Sakhaha. Okay. Audio connection lost. Hello. Hello. Okay, good. Sorry. I was saying about touch. The effect of touch is to make the samasa akaranta. So whenever we have sakhi shabda in a tatpurusha compound, it gets touched as the samasanta and it becomes akaranta. Like we have Krishna sakhaha, parama sakhaha, kimapi. Now he questions here, you have sakhim atikrantaha, which is also a tatpurusha compound. Atyadaya krantiladhyarthe dvitiyaya iti tatpurusha eva. Ati sakhihi. Touch pratyaha kutona bhavati. Why do we not have touch here? His question for arguing for touch is, there is a paribhasha called Pratipadika Grahane Linga Vishishtasya Api Grahana. We have studied this Pratipadika in Arthavada Dhatuha and Krittadhita Samasascha. So Pratipadika Grahane Linga Vishishtasya Api Grahanam Bhavati. Wherever we are dealing with Pratipadikas, we also take into consideration any Pratipadika which differs only by Linga. For example, when I say I take Gaura Shabda, I also consider Gauri, because there has been a stri pratyaya added. Then whenever I take sakhi shabda, I should also take the stri linga variant of it, which happens to be sakhi. Pratipadika grahane linga vishishtasya api grahanam iti paribhasha vidyate. Taya paribhashaya yatra sakhi shabdasya samasanta pratyaya bhavati tathaiva sakhi sakhim ati krantaha ityatrapi samasantaha bhavet kila iti prashna. Just a second please. हरिओम हाँ एक निमिष में अच्छा हरिओम हेलो. So now the argument is, since this paribhasha exists, since we have pratipadika grahane linga vishishtasya api grahanam, wherever we have touch, since we have touch for sakhi shabda, we should also have it for sakhi. This is an intermediate argument which is not directly connected to our purpose. So he says, linga vishishta paribhashayaha anityatvat na touch. Esha paribhasha, pratipadika grahane linga vishishtasya api grahanam iti paribhasha anitya. Sarvatra na pravartate. Tasmat tatpurusha samasepi sakhi shabdasya tach pratyaha na bhavati. So sakhi matikrantaha ati sakhi ityasti. Atrakim bhavati harivat drupani. So this ati sakhi, sakhim atikrantaha ati sakhi ityatra hari shabdavad drupani bhavanti. Arthat anangnitve na bhavataha. Iha anangnitve na bhavataha. Gostriyoho upasarjanasya iti upasarjanatvena sakhi shabdasya lakshanikatvat. Because this sakhi shabda which we hear here is not actually originally sakhi shabda, right? It was originally sakhi. It has been shortened to form sakhi. So because of that, we cannot apply anang nitva here. Why? Lakshana pratipadoktayoho pratipadoktasyaiva grahanam. Also seen this paribhasha. Lakshana pratipadokta. Pratipadokta is that which is directly something. For example, sakhi. Ikarantaha pullingaha sakhi shabdaha yahasti. Saha pratipadoktaha. Lakshanaya agatam lakshanikam. Lakshana means a shastra. That which we derive artificially using some shastra is called lakshanika. So when you have, directly you have a sakhi shabda, which is originally and truly genuinely a sakhi shabda. We have another sakhi shabda which has been artificially derived from sakhi using gostriyo upasarjanasya. Right? So the original sakhi shabda is called pratipadokta, and the second sakhi shabda, the one derived from sakhi, is called lakshanika, because we have used a lakshana sutra to derive this sakhi shabda. This paribhasha tells lakshana pratipadoktayoho pratipadoktasyaiva grahanam bhavati. Yatra lakshanikam asti pratipadoktam chasti tatra pratipadoktasyaiva grahanam. Therefore only if something is originally sakhi shabda, then only we have anang and nidvad bhava. Yatra lakshanaya sakhi shabdaha nishpannaha tatra anang nidvad bhavo na bhavataha. So here for atisakhi, sakhim atisakrantaha atisakhihi ityatra, anang na bhavati, nidvadbhavaha na bhavati, jhisamyatu bhavati, tena harishabdavad rupani. So all forms are like hari. In the first five forms there is no anang, no nidvadbhava, and in these five forms there is jhisamya. Therefore atisakhi differs from sakhi in all these 10 forms. First five and these five. That clear? Meaning of atisakhi. Atisakhi means sakhim atikrantaha. So this is one standard samasa. He who has gone beyond his sakhi. Sakhi is a friend. Ikarantaha strilingaha. Sakhim atikrantaha. Atikrantaha in what sense? Either it need not be literally crossing, it may be excelling or excelling his friend, can be called atisakhi, etc. So the original is sakhi, sakhim atikrantaha, strilinga eva asti. He who has crossed his friend, sakhi is the meaning. Okay, atra mule asti sakhi iti ikaranta strilingaha. Ikaranta strilinga sakhi shabdena saha samasaha kriyate. Ati sakhi ityasti. Sakhi iti dirghe sthite, since it is a stri pratyayanta and since it is upasarjana. In this particular tatpurusha, it is pradhana is not sakhi, it is not the friend who is pradhana, it is himself, the person who has crossed who is pradhana. So that is why it is upasarjana. Upasarjanatvat gostriyor upasarjanasya iti hrasve krute ati sakhi iti bhavati. अत्र ह्रस्वः यः सखी ह्रस्वान्तः सखी शब्दः श्रूयते सः वस्तुतः सखी शब्दः नास्ति. इट् इस् नाट् सखायम् अतिक्रान्तः, इट् इस् सखीम् अतिक्रान्तः. सो द मूल वर्ड् हियर् इस् सखी ईकारान्त एण्ड् वी हेव् डिरैव्ड् अ ह्रस्वान्त बै यूसिङ्ग् सम् सूत्र. दट् इस् वै दिस् बिकम्स् लाक्षणिक. उपसर्जन एण्ड् गौण आर् द सेम्. In this context, there are two contexts in which upasarjana is used. For now, upasarjanatva means gaunatva, apradhana. All of them are synonyms. Upasarjanam, gaunam, apradhanam. Okay. Now, let us sum this up a bit. What happens in samasa? Bhinneshu samaseshu. The first case where we have is pradhanya. Let's consider that the sakhi shabdam pradhanam bhavati. Kutra pradhanam bhavati. You should also notice that it is in tatpurusha. It can either be pradhana or gauna. Right? Tatpurushe samanyataha pradhanyam bhavati. Generally, any word. This does not apply only to sakhi. I am telling generally, tatpurusha samase pradhanam api bhavitum arhati, gaunam api bhavitum arhati. Kutra pradhanam. Shashti, Dvitiya, Tritiya, etc. All these Tatpurushas are Pradhana. Similarly, you have Karmadharayepi, Tasya Pradhanyam Bhavati. Kintu, Asmin Samase, Atikrantaha, Nishkrantaha, Pradhi Samase, in Pradhi Samasas, when we say Sakhim Atikrantaha or Sakhayam Atikrantaha, any such Samasa, Atikrantaha, Nishkrantaha, etc. In these Samasas, it is Apradhana. Because you can just check the meaning. When you say sarvam atikrantaha ityasti, sarvam atikrantaha atisarvaha, atra pradhanyam kasya atisarvaha gacchati ityukte, sarve gacchanti va saha ekaha gacchati va. Only he, atisarvaha means he who excels everybody, right? So when we say atisarvaha gacchati, sarve na gacchanti, it is not everybody who are associated with the kriya. It is that one person who is excelling who goes. Right? Tasmat ati atikrantaha yaha tasyaiva pradhanyam natu sarvasya. So in tatpurusha a word can either be pradhana or apradhana. In dvandva the word is always pradhana. Ubhaya pradartha pradhanaha dvandvaha. Rama lakshmano gacchataha ityukte ramopi gacchati lakshmanopi gacchati. Dvandve sarvada padasya pradhanyam bhavatyeva. Bahuvrihi samase sarvada तस्य अप्राधान्यमेव उपसर्जनत्वम् अ बहुव्रीहि कंपाउंड इज ऑलवेज व्हेन आई से ऑलवेज आई मीन या इन बहुव्रीहि आई थिंक ऑलवेज ऑलवेज इट इज उपसर्जन इन द्वंद्व इट इज ऑलवेज प्रधान इन तत्पुरुष इट कैन ईदर बी प्रधान और अप्राधान राइट सो नाउ प्राधान्ये सखी शब्दस्य किं भवति प्राधान्ये तत्पुरुषे तत्पुरुषे यदा सखी शब्दस्य प्राधान्यमस्ति तदा किं भवति कृष्णस्य सखा कृष्णसखः राधाः सखिभ्यश्च इति समासान्तः टच् प्रत्ययः भवति सो वी हैव अ समासान्त वी हैव टच् प्रत्यय सो द वर्ड बिकम्स अकारान्त अकारान्तत्वं संपद्यते रामशब्दवद् रूपाणि ऑल फॉर्म्स आर लाइक रामशब्द देयर इज नो अनंग नो नित्वा देयर इज नो घिसम्य देयर इज नथिंग द फॉर्म्स आर एग्जैक्टली लाइक रामशब्द ओके दैट हैज नॉट बीन डेल्ट विद दीक्षितर इन द कौमुदी किन्तु तत्पुरुषे क्वचित् समासान्तः न भवति देर आर् अ फ्यू केसेस् इन् तत्पुरुष वेर् देर् इस् नो समासान्त एण्ड् अगेन् इन् द्वन्द्वसमास देर् इस् नो समासान्त बिकास् दिस् समासान्त हेस् बीन् टोल्ड् ओन्ली फार् तत्पुरुष तदा किं भवति किमर्थं तत् समासान्तः न भवति इत्युक्ते न पूजनात् इति निषेधः विद्यते यदा सु इति उपसर्गः प्रादिः अति इति प्रादिर्वा पूजनार्थे वर्तते वेन् दीस् टु आर् यूस्ड् इन् द सेन्स् आफ् पूजन डस् नाट् मीन् वर्शिप् रेस्पेक्ट् शोभनः सखा अतिशयितः सखा यु आर् प्रेजिङ्ग् द फ्रेण्ड् रैट् सो तस्मिन् अर्थे न पूजनात् इति निषेधः विद्यते तस्मात् समासान्तप्रत्ययः न भवति दट् इस् वै दीक्षित हस् टेकन् दोस् टु एक्साम्पल्स् बिकास् दे आर् द ओन्ली टु एक्साम्पल्स् इन् तत्पुरुष बीङ्ग् प्रधान वेर् देर् इस् नो समासान्त हि कुड् नाट् टेक् एनी अदर् वर्ड् बिकास् जनरली 90% आफ् केसस् देर् इस् समासान्त वेन् देर् इस् सु अण्ड् अति देर् इस् नो समासान्त तदा किं भवति सुसखा अतिसखा सर्वनामस्थानेषु सखिशब्दवद् रूपाणि ततः हरिशब्दवद् रूपाणि सो इन् द फस्ट् फैव् फार्म्स् यु हेव् फार्म्स् लैक् सखि सखा सखायो सखायः ततः हरिशब्दवत् सुसखिना सुसखये इत्यादि रूपाणि भवन्ति सो यु हेव् अनङ् निद्वद्भावः घिसंज्ञ सर्वाणि भवन्ति रैट् दिस् इस् वेन् वि आर् डीलिङ्ग् वित् प्राधान्यम् अप्राधान्ये किं भवति अर्थात् गौणत्वे बहुव्रीहिसमासे किं भवति तत्पुरुषत्वं नास्ति टच् न भवति सो फस्ट् थिङ्ग् देर् इस् नो समासान्त देर् इस् नो टच् बिकास् टच् अकर्स् ओन्ली इन् तत्पुरुष रैट् सो गौणत्वेपि अनङ्णित्वे भवतः घिसंज्ञा अपि भवति वी हेव् अनङ् वि हेव् णित्वा वि हेव् घिसंज्ञा सो द फार्म्स् आर् लैक् द प्रीवियस् केस् द सेकेण्ड् केस् वेर् वी हेड् दिस् परमसखा परमसखायो परमसखायः सर्वनामस्थानेषु परेषु सखिशब्दवद् रूपाणि ततः हरिशब्दवद् रूपाणि परमसखिना परमसखये एक्सेट्रा देर् आर् आल्सो अ केस् विच् दीक्षितर् हेस् नाट् टच्ड् हियर् तत्पुरुषे यत्र गौणत्वम् अस्ति एस् ऐ टोल्ड् तत्पुरुष केन् ईदर् बि प्रधान आर् गौण सो इफ् इन् तत्पुरुष इफ् इट् इस् गौण आल्सो दिस् इस् जस्ट् मै दिस् देर् शुड् बि टच् तत्पुरुषे एक्सेप्ट् इन् सुसखा एण्ड् अतिसखा देर् आर् आल्वेस् टच् So I think you should just forget about this. This was just for my interest. I was wondering what would happen. Okay. So there will be touch basically. Touch pratyayantah bhavati, akaranto bhavati, ramashabdavad rupani bhavanti. Okay. And the last case is where lakshanikatve, where you have samasa and you have lakshana. That is sakhishabdaha lakshanaya nishpannaha, shastra pravrtteha nishpannaha, sakhim atikrantaha. अतिसखी इति स्थिते गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः भवति अतिसखि इति इकारान्तं प्रातिपदिकं समासान्तः न भवति बिकास् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषायाः अनित्यत्वात् यदि इयं परिभाषा प्रवर्तेत तदा समासान्तोऽपि भवेत् किन्तु न भवति अस्याः परिभाषायाः अनित्यत्वात् अनङ्णित्वे अपि न भवतः अनङ् न भवति णित्वं न भवति कुतो न भवति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं यः मूलतः सखिशब्दः तस्यैव ग्रहणं भवति लाक्षणिकस्य सखिशब्दस्य ग्रहणं नास्ति सो वी डु नाट् हाव् अनङ् नो णित्वा घिसंज्ञा भवति बिकॉज समुदाय से सखी रूपत्वाभावात घिसम्या भवति ऑल फॉर्म्स आर लाइक हरि सो व्हेन वी आर गोइंग फ्रॉम सखी शब्द फर्स्ट सखी शब्द से किम भवति देयर आर थ्री थिंग्स अनंग भवति नित्वं भवति घिसम्या न भवति राइट सो द फॉर्म्स आर बिकॉज ऑफ दिस अनंग भवति नित्वं निद्वद्भावः भवति घिसम्या न भवति यत्र समासांतः नास्ति तत्पुरुषे सुसखा अतिसखा शोभनसखा अतिशयितसखा इत्यत्र समासांतः नास्ति तदा किं भवति अनंग भवति निद्वद्भावः भवति घिसम्या अपि भवति ऑल थ्री विल हैपन सो द फॉर्म्स विल बी हाफ लाइक सखी शब्द एंड हाफ लाइक हरि शब्द इन बहुव्रीहि समास आल्सो समासांतः न भवति अनंग भवति निद्वद्भावः भवति घिसम्या भवति सो दिस इज आल्सो लाइक सुसखा एंड अतिसखा परमसखा ऑल थ्री आर हाफ लाइक सखी शब्द स्वादिपंचके सखी शब्दवद् रूपाणि ततः हरि शब्दवद् रूपाणि एंड देन देयर इज अ लाक्षणिक अति सखी शब्द सखीम अतिक्रांतः अति सखी तत्र तु अनंग न भवति निद्वद्भावः न भवति घिसम्या एव भवति देयर इज ओनली घिसम्या इट डज नॉट गेट अनंग एंड निद्वद्भावः सो ऑल फॉर्म्स विल बी लाइक हरि शब्द सो दैट इज द थिंग अबाउट हरि शब्द आई मीन सखी शब्द फॉर द फर्स्ट हियरिंग इट माइट बी अ बिट कंफ्यूजिंग लेट्स गो थ्रू दिस लेसन अगेन यू हैव एनी डाउट्स एनी टाइम यू कैन आस्क If you want me to go through this again, we can do it next class. But please go through this once today, after today's class. So you have an idea of what we are speaking about. Okay, any questions now? No? Sorry. We'll stop here. There is no class on Friday. I would be traveling to Bangalore, so Friday there is no class. Next class is on Monday. Monday same time. Yena akshara samam vyakaranam akshara pratisam vyakaranam proktam tasmai panina ye namaha. Mitrayan namaskritya tadukti paribhavya cha vyakaranasiddhanta kaumudiyam virachyate.